नमस्कारः अद्य वैयाकरणभूषणसारस्य धातुर्थप्रकरणे द्वाविंशः पाठः एप्रिल् मासस्य चतुर्थः दिनाङ्कः येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मिनित्रयम् श्रीलक्ष्मीरमणं नौमि गौरीरमणरूपिणं स्फोटरूपं यतः सर्वं जगदेतद्विवर्तते कृदन्तेषु भावनायाः प्रतीतिः अस्ति वा न वा इति अस्माभिः अधीयमानमासीत्। कृदन्ते विशिष्य भावकृदन्तस्थले यथा घञादिषु धातुना साध्यरूपेण क्रियायाः भानं भवति, घञादिप्रत्ययैः सिद्धरूपेण क्रियायाः भानं भवति इति सिद्धान्तः। अत एव कारिका उच्यते, आख्यातशब्दे भागाभ्यां साध्यसाधनरूपता प्रकल्पिता यथाशास्त्रे स घञादिष्वपि क्रमः इति। अर्थात् यत्र तिङन्तद्वयस्थले पतति भवति अथवा पश्यमृगो धावति इत्यादिषु भागाभ्यां नाम तिङन्तद्वयेन साध्यसाधनरूपता, एकेन तिङन्तेन साध्यरूपा क्रिया बोध्यते अपरेण च साधनरूपा क्रिया बोध्यते, एवं घञादिष्वपि प्रकृतिभागेन साध्यक्रिया प्रत्ययभागेन सिद्धक्रिया इति सिद्धान्तः। साध्यत्वं दृष्टं क्रियान्तराकाङ्क्षा, अनुत्थापकत्वं साध्यत्वं, कारकत्वेन अन्वयित्वं तु साधनत्वं, तदेव सिद्धक्रिया इत्यपि उच्यते। तत्र घञन्ते साध्यक्रियाप्रतीतौ किं प्रमाणम् इति मीमांसकैः पृच्छ्यते। यतोहि मीमांसकैर्वा नैयायिकैर्वा कृदन्तस्थले कृदन्तेन कारकान्वयः नाङ्गीक्रियते। तत्र कर्तृकर्मणोः कृति इति सूत्रमेव प्रमाणम्। यतोहि तेन सूत्रेण स्पष्टं कृद्योगे कर्तृकर्मणोः षष्ठी विभक्तिः विधीयते, यथा ओदनस्य पाकः इत्यादिषु। अत्र मीमांसकैरुच्यते अध्याहृतक्रियया अन्वयः भवतु इति, अर्थात् ओदनस्य पाकः भवति भविष्यति इत्यादि अस्ति इत्यादि किमपि क्रिया अध्याह्रियते, तेन तिङन्तेन अन्वयः भवतु कर्मषष्ठ्याः न तु कृदन्तेन इति, तत्तु न शक्यते। यतोहि कर्तृकर्मणोः कृति इत्यनेन स्पष्टं कृद्योगे षष्ठी विधीयते न तु तिङन्तेन योगे। किञ्च न लोकाव्ये निष्ठा खलर्थतृणाम् इति निषेधसूत्रेण लादेशे षष्ठी निषिध्यते, तिङन्ताः तिङ् प्रत्ययाः सर्वेपि लादेशाः, अतः तेन योगे षष्ठ्याः निषेधः एव स्यात् न तु षष्ठ्याः प्रवृत्तिः। अतः अत्र पाकः इति घञन्ते यः पच् धातुः तेनैव कर्मणः अन्वयः वक्तव्यः। सर्वेषां कारकाणां कृदन्तैरपि अन्वयः भवति इति वैयाकरणसिद्धान्तः। काष्ठैः पचति इतिवत् काष्ठैः पाकः, स्थाल्यां पचति इति यथा तथा स्थाल्यां पाकः इत्यादि सर्वत्रापि कृदन्तस्थले धातुना साध्यक्रिया बोध्यते, तया साध्यक्रियया कारकाणाम् अन्वयः भवति इति सिद्धान्तः। तदेव अग्रेपि प्रतिपाद्यते, एवं फलांशोऽपि धातुना असत्त्वावस्थापन्नः एव उच्यते, धात्वर्थः व्यापारः फलञ्च उभयमपि साध्यत्वेन विवक्ष्यते। अत एव स्तोकं पचति इतिवत् स्तोकं पाकः इति उपपद्यते इति। अत्र स्तोकं पचति इति प्रयोगः, स्तोकं यथा भवति तथा पचति इति, अर्थात् स्तोकं नाम अल्पम् इत्यर्थः। तत्र क्रियाविशेषणं, स्तोकम् इति क्रियाविशेषणं, क्रियाविशेषणानां कर्मत्वं क्लीबता च इति वार्तिककारेण उच्यते। अतः यत्र यत्र क्रियायाः विशेषणं भवति, शीघ्रं लिखति, मन्दं वदति इत्यादि, तत्र सर्वत्र क्रियाविशेषणस्य कर्मत्वम् उच्यते, क्लीबता च उच्यते, कर्म च फलाश्रयः। अतः फलं स्तोकं नाम अल्पं यथा भवति तथा पाकक्रिया इति अर्थः। तत्र स्तोकपदार्थस्य फले नाम धात्वर्थे फले अन्वयः अङ्गीक्रियते। एवमेव स्तोकं पाकः इत्यपि प्रयोगः अस्ति, तत्र साध्यस्य फलस्यैव अल्पत्वं विवक्ष्यते। स्तोकं पाकः इत्यत्रापि समानरीत्या धात्वर्थः यत्फलम् तस्य आश्रयत्वेन स्तोकस्य कर्मत्वम् स्तोकं पाकः इति प्रयोगः अपि उपपद्यते. एवं फलांशोऽपि धातुना असत्त्वावस्थापन्नः एव उच्यते. अत एव स्तोकं पचति इतिवत् स्तोकं पाकः इत्यपि उपपद्यते इति. एतदेव स्पष्टयति पूर्वं किमुक्तम्. आख्यातशब्दे भागाभ्यां साध्यसाधनरूपता प्रकल्पिता यथा शास्त्रे सघन्यादिष्वपि क्रमः इत्युक्तम्. तत्रैव अनुवर्तयति साध्यत्वेन क्रिया तत्र धातुरूपनिबन्धना सिद्धभावस्तु यस्तस्याः सघन्यादि निबन्धनः. तत्र क्रिया साध्यत्वेन धातुरूपनिबन्धना तस्याः यः सिद्धभावः स तु घन्यादि निबन्धनः. तत्र नाम घञादिषु इति उक्तं. तत्र नाम भावकृदन्तस्थले साध्यत्वेन क्रिया धातुना उच्यते. सिद्धक्रिया तु घञादिप्रत्ययेन उच्यते इति. न च घञादिभिः सिद्धत्वेन अभिधाने मानाभावः. अस्तु धातुना साध्यरूपेण क्रिया बोध्यते इत्यत्र प्रमाणं प्रदर्शितं कर्तृकर्मणोः कृति इति सूत्रम्. ओदनस्य पाकः इत्यादि प्रयोगाश्च प्रमाणत्वेन प्रदर्शिताः. घञादिभिः सिद्धत्वेन क्रिया अभिधीयते इत्यत्र किं प्रमाणम् इति चेत् पाकः इत्युक्ते भवति नष्टो वा इत्यादि आकाङ्क्षा उत्थापनस्यैव मानत्वात्. सिद्धक्रिया साध्यक्रिया नाम किम्? यत्र क्रियान्तर आकाङ्क्षा नोत्पद्यते सा साध्यक्रिया, यत्र तु क्रियान्तर आकाङ्क्षा उत्पद्यते सा सिद्धक्रिया. यदा पाकः इत्युच्यते तदा क्रियाविषयिणी आकाङ्क्षा उत्पद्यते. पाकः नाम काकः भवति इति वर्तमानत्वं वा, पाकः नष्टः इति भूतत्वं वा, पाकः भविष्यति इति वा इति क्रियाविषयिणी आकाङ्क्षा उत्पद्यते. तदेव मानम्. धातूपस्थाप्यायां तदसम्भवस्य उक्तत्वात् धातुना या क्रिया उपस्थाप्यते सा तु साध्यक्रिया इति उक्तमस्ति. तथा सति क्रियान्तर आकाङ्क्षाम् उत्पादयितुं सिद्धरूपेण क्रियायाः भानम् अपेक्षितम् इति. न च घञादिभिः सिद्धत्वेन अभिधाने मानाभावः. पाकः इत्युक्ते भवति नष्टो वा इत्यादि आकाङ्क्षोत्थापनस्यैव मानत्वात्. धातूपस्थाप्यायां तदसम्भवस्य उक्तत्वात् स्तोकः पाकः इत्यनापत्तेश्च. स्तोकः पाकः इत्यपि प्रयोगः अस्ति. स्तोकं पाकः इति यथा प्रयोगः, एवं स्तोकः पाकः इत्यपि प्रयोगः अस्ति. एतत्तु कदा भवति? यदा धातुना क्षम्यताम्, यदा घञा सिद्धक्रिया उच्यते तदैव स्तोकः पाकः इति सम्भवति. तस्मात् धात्वर्थान्वये स्तोकादिशब्देभ्यो द्वितीया, घञर्थान्वये प्रथमा पुल्लिङ्गता चेति. एवं प्रयोगद्वयमपि विद्यते. स्तोकं पाकः इत्यत्र कथम्? धात्वर्थेन साध्यभावापन्नेन फलेन स्तोकपदार्थस्य अन्वयः. क्रियाविशेषणत्वात् कर्मत्वं क्लीबता च. अतः द्वितीया विभक्तिः स्तोकं पाकः इति. स्तोकः पाकः इत्यत्र तु घञी प्रत्ययार्थेन सिद्धेन फलेन अन्वयः. अत्र उक्तं पाकः इत्यत्र पचिधातोः विक्लिप्तिः तदनुकूलव्यापारः अर्थः. घञी प्रत्ययस्यापि स एव अर्थः. भावो नाम धात्वर्थः. भावे यः प्रत्ययः विहितः सः धात्वर्थमेव बोधयति. किन्तु कः भेदः इति चेत् अयमेव भेदः. धातुना उपस्थाप्यमाना क्रिया नाम व्यापारः फलञ्च साध्यक्रिया इत्युच्यते. घञ् प्रत्ययेन यः व्यापारः यच्च फलम् उच्यते तत् सिद्धरूपेण उच्यते. एवञ्च यत्र घञ् प्रत्ययार्थेन सिद्धेन फलेन अन्वयः भवति स्तोकशब्दस्य, तत्र समानाधिकरण्यात् प्रथमा विभक्तिः स्तोकः पाकः. प्रथमा विभक्तिः पुल्लिङ्गत्वं. पाकः इति पुंसि, घञ् घञजपाः पुंसि इत्यनेन पुंस्त्वम्, एवं स्तोकः इत्यस्यापि पुंस्त्वम्. एवं द्विविधः प्रयोगः अस्ति. स्तोकं पाकः, स्तोकः पाकः इति.
गुड् आफ्टर्नून् सौम्य.
यस्. प्रश्नः अस्ति वा? I cannot hear you. Your voice. I think you muted. Yes. Na shruyate. Are you speaking? I heard you a bit in the beginning, but then I lost it.
No, ma'am?
Yeah. Tell. Yeah, shruyate, vadatu. Muted again. Maybe you can try unmuting yourself now. Okay, so the question here. Okay, I'll come to your question. Yes, Nanda Kumar.
Madam, can you explain this Siddhakriya and Satyakriya a little bit more? And this, since I joined later, if it's inappropriate to ask at this point, please pardon me. Ghanya also, I didn't understand.
Yeah, I mean, we did this earlier, so I rather went through it quickly because we did it. So I'll come back. Yes, I'll explain again. See, Kriya or action is of two kinds. We call one as Sadhya Kriya and the other as Siddha Kriya. So, Sadhya Kriya, Kriyantara Akanksha Anukthapakatvam Sadhyatvam. So, there in which a Kriya does not give rise to an Akanksha, a requirement of another Kriya for completion of its meaning is called Sadhya Kriya. That is, when we say Pachati, we don't ask any questions related to other action. So, pachati ityukte ke kaha ke prashnaha udbhavanti, kaha pachati, kim pachati, kena pachati, kutra pachati ityadi karaka akanksha bhavati. So, there is akanksha. So, always akanksha is the requirement of something else to complete its meaning. So, yatra pachati iti prayogaha bhavati tada prashnaha kriya vishayakaha na bhavanti. We do not ask any other action related to pachati. The action is already there. So we ask questions related to the sadhana, which is the karakas. So we ask kaha pachati, kim pachati, kutra ityadi prashnaha bhavanti. Etadeva kriyantara akanksha anupthapakatvam. Kriyantaram nama anya kriya kriyantaram. Kriyantarasya akanksha yatra na bhavati. Tadrishi kriya sadhya kriya ityuchyate. Yatra tu siddha kriya asti. Tatra kriyantarasya akanksha bhavati. Yatha pathaha athava pakaha. Pathaha pakaha ityadi ghai pratyayantaha shabdaha. Bhavarthe ghai pratyaya vidhiyate bhave iti sutrena. Bhavo namakaha. Bhavo nama dhatvartha. Dhatuna yaha arthaha bodhyate. Phalanukulaha vyaparaha. Sayeva arthaha pratyena api bodhyate. Tarhi kaha bhedaha iti chete. Tatra bhashyakarena uchyate. Kridabhitaha bhavaha dravyavat prakashate. Arthat krut pratyena yatra bhavaha nama kriya uchyate. Tatra siddharupena tasyaha bhanam. Siddharupam nama kim. Tat siddharupa kriya. Anyayaha kriyayaha akanksham utthapayati. Yata pathaha ityukte kim prichhamaha. Pathaha kim. Pathaha patitahava. Patishyateva kim. Evameva pakaha bhavati bhavishyati abhud ityevam. Kriyantarasya akanksha udeti. Ataha atra siddhakriya ityuchyate. Evam tingantasthale sadhyakriyayaha pradhanyam, kridantasthale siddhakriyayaha pradhanyam iti siddhantaha. Atra prashnaha anyena prashtaha atraiva kriyadvayam api asti chet ekatra kriyantara akanksha asti anyatra nasti iti katham vaktum shakyate iti chet. पाकः इत्यत्र क्रियाद्वयमपि अस्ति, अर्थात् साध्यक्रिया धातुना साध्यक्रिया बोध्यते प्रत्ययेन सिद्धक्रिया इति, किन्तु तत्र सिद्धक्रियायाः एव प्राधान्यं, प्रकृतिप्रत्ययार्थयोः प्रत्ययार्थः प्रधानम्, अतः पाकः इत्युक्ते प्राधान्येन सिद्धक्रिया एव बोध्यते, अत एव पाकः इत्यस्य अन्येन अन्यया क्रियया कारकत्वेन अन्वयः भवति, पाकः अस्ति, पाकं करोमि, पाकेन किमपि क्रियते, अथवा पाकाय शाकानि इत्येवं कारकत्वेन अन्वयः भवति, यतोहि घञन्तपदेन यद्यपि तत्र भागद्वयमस्ति, धातुना साध्यक्रिया बोध्यते प्रत्ययेन सिद्धक्रिया बोध्यते, तथापि प्राधान्यं सिद्धक्रियायाः, अतः सिद्धक्रियायाः एव अन्यत्र अन्वयः प्रदर्शयितुं शक्यः. यु केनाट् डिमान्स्ट्रेट् द साध्यक्रिया इन् पाक इण्डिपेण्डेण्ट्लि, बिकास् वेन् वि से पाक, वेन् वि यूस् एनी घयन्त, इट् इस् द सिद्धक्रिया विच् इस् प्रधान, बट् द साध्यक्रिया इस् स्टिल् देर् बिकास् यु आर् सी पाक इट्सेल्फ् इस् अ कारक. से फार् एक्साम्पल् वेन् ऐ से ओदनस्य पाकं करोमि, okay, so let's take a tinganta prayoga, odanam pachami, there it is very clear, odana is the karma and paka is the kriya, pachadhatu gets the kriya, so odana is the karma. When I say odanasya pakam karomi, you can see that paka has anvaya to both sides, okay. When I'm saying pakam karomi, so the paka padartha is a karma for the kridhatu, but when I say odanasya pakaha, odanasya pakam karomi, the odana part there is again a karaka for paka, as in the pachidhatu portion of the paka can act as the kriya for other karakas, as the ashraya for the other karakas. That is why you can associate the other karakas with the kridanta, and the kridanta itself can act as a karaka for the kriya of the tinganta, of other tingantas, okay. So both the dual behavior is exhibited in case of such kridantas. I say odanasya pakam karomi, the ghai pratyaya portion which represents siddha kriya, which is pradhana in the paka, so it allows the word to act as a karaka for other kriya, which is kriyantara akanksha utthapakata, whereas the dhatu portion, it does not have any other kriya as the akanksha, but it has the akanksha for the karakas. So it allows being connected to other karakas like odana. So in odanasya pakam karomi, so the odana is the karma for the sadhya kriya represented by pachidhatu, whereas the paka kriya itself as represented by the ghai pratyaya, that is the karma karaka for the action represented by the kridhatu. Is that clear?
Yes, ma'am. Thank you very much. Now I got it.
Yeah. It is true. Pachati is the sadhya form and pakaha is the siddha form in the sense. In pachati, sadhya kriyayaha pradhanyam. In paka, siddha kriyayaha pradhanyam. Kintu pakaha ityatra, na kevalam siddha kriya, sadhya kriya api asti. Siddha kriya api asti. Siddha kriyayaha pradhanyam. Kintu dhatu bhagena sadhya kriya api uchyate. So that is the key point here. Yes, Nandakumar.
So what I understand is the siddha sadhya difference does not depend absolutely on the verb, but the way in which that verb is used.
See, the verb always represents sadhya kriya. The verb always represents sadhya kriya. It's only the pratyaya in case of tinganta, it is pradhana, there is no other kriya at all. Whereas in case of a kridanta, if the pratyaya represents the siddha form, that will override the sadhya form because pratyayartha is pradhana. So, the dhatu always represents the sadhya kriya only. That is why it allows the relation with other karakas. It allows other dravyas to be connected to it. Okay. So dhatu is different from the verb. Yes, I prefer to use dhatu because verb could be used as a substitute for kriya pada or whatever. So the verb root is dhatu, the root of the verb we will take it as dhatu. So wherever we have a dhatu, there is sadhya kriya, and because of the sadhya kriya, you can link other karakas to it. Tingantas, it is the dhatu, dhatvartha, which is vyapara, which is pradhana. So there is no other vyapara there. So sadhya kriyayaha pradhanyam. Whereas in case of kridantas, the pratyayartha will take precedence. So whether if the pratyayartha is karta, as in pasakaha, so there also in odanasya pasakaha. So there odana is karma to the kriya represented by the pachadhatu. And then pasakaha is the pratyayartha is the karta. So odanasya pasakaha agachati ityukte. So from pachaka we have two senses. One is pachakaha agachati. So pachaka, the karta is the cook is the karta for say agachati. Or maybe I can say odanasya pachakam pashyami. So the pachaka, the cook is the karma for darshanakriya. Okay. So the cook as represented by the akha, the nul pratyaya, is the karma for darshanakriya. But he is the karta also. Karta for what? For the pat, pakakriya. So the cook is the karta for the pakakriya and he is the karma for the darshanakriya. Darshanakriya is represented by the pashyami, the dhatu in pashyami, whereas the pakakriya is represented by the dhatu there itself in pachi. Okay? Otherwise, you cannot have him as the karta. Karta for what? What is the kriya? If the dhatu does not represent sadhya kriya, you cannot have the karta at all. That is what he is going to say next, that it is not possible to have. He also told earlier that you cannot have the krit pratyayas in the sense of different karakas unless the bhavana is vachya by the dhatu. Okay? Clear? Any other questions? So, Atra, yes, Manuprakash, you have a question?
I'm a mistake, sorry.
So, stokam pakaha iti prayoge, stokam iti kriya visheshanam, tadatu stoka padarthasya dhatvartha phalena anvayaha. Tada karmatvam klibata, klibata nama napumsakatvam cha bhavati. Yadatu stokahpakaha iti prayogaha tatra pratyayarthena phalena anvayaha prathama vibhaktihi pumstvam cha bhavati. Ataha vividhayaha kriyayaha apibhanam krit pratyayasthale arthat ghayadisthale bhavati. Nacha ghanyadibhihi siddhatvena abhidhane mana bhavaha pakaha ityukte bhavati nashtova ityadyakanksha utthapanasyaiva manatvat dhatupasthapyayam tadasambhavasya uktatvat stokahpakaha iti anapatteshcha tasmat dhatvarthanvaye stokadishabdebhyo dvitiya ghanyarthanvaye prathama pullingata cheti tatsiddhaye ghanyadehe shaktihi upeya ataha ghai pratyayantasyapi arthaha asti shaktihi nama padartha vachakattvam asti kam padartham bodhayati siddha rupena kriyam bhavam bodhayati etat kimartham uchyate etena ghanyadina prayoga sadhuta matram iti nayayika navyoktam apastam tatra nayayikaha vadanti ghai pratyayah nirarthakah भावे इति उच्यते किंतु तस्य वस्तुतः अर्थः नास्ति यतो हि भावः नाम धात्वर्थः धातुना एव बोध्यते एवं सति उक्तार्थानां अप्रयोगः इति कारणेन तस्यैव अर्थस्य घञ् प्रत्ययेन किमर्थं वाच्यत्वम् अंगीकर्तव्यम् अतः घञ् प्रत्ययः निरर्थकः किमर्थं तर्हि क्रियते साधुत्व मात्र प्रयोजकः साधुत्वम् अपेक्षितम् यतो हि घञ् प्रत्ययं विना तस्य प्रातिपदिकत्वं न सिद्ध्यति तद्विना सुप्रत्ययाः योजयितुं न शक्याः परत्वं न सिद्ध्यति अतः प्रयोगसाधुता मात्रम् इति नैयायिकनव्योक्तम् अपास्तम् किमुक्तं घञादेः शक्तिः उपेय नो चेत् स्तोकःपाकः इत्यादयः प्रयोगाः न सम्भवन्ति अतः न च घञ्यन्तशक्त्युपस्थाप्यन्वये स्तोकःपाकः इति भवति इति वाच्यम् तदा नैयायिकैः किमुच्यते अस्तु तर्हि घञ् प्रत्ययस्य सिद्धरूपक्रियावाचकत्वम् इति मास्तु घयन्तस्य शक्तिम् अङ्गीकुर्मः. घञ् प्रत्ययान्तः यः शब्दः तस्य वाचकत्वम् अङ्गीकुर्मः, न तु केवलस्य प्रत्ययस्य. न च घञन्तशक्त्युपस्थाप्य अन्वये श्लोकः पाकः इति भवति इति वाच्यम्. घयन्त आनुपूर्व्याः शक्त्यचावच्छेदकत्वे गौरवात् अनुशासनाच्च घञादेरेव तथा शक्तिकल्पनात्. यदि प्रत्येकं घयन्तस्य शक्तिः अङ्गीक्रियते तर्हि अनन्ताः घयन्ताः. सो इफ् यु आर् सेयिङ्ग् ईच् घयन्त हेज् शक्ति टु रेप्रेसेण्ट् अ पर्टिक्युलर् मीनिङ्ग्, देर् आर् इन्फैनैट् नम्बर् आफ् घयन्तस्. अतः सर्वेषामपि शक्यतावच्छेदकम् अङ्गीकर्तव्यम्. घयन्त आनुपूर्व्याः शक्यतावच्छेदकत्वे गौरवात्, तदपेक्षया घञ् प्रत्ययस्यैव शक्तिः. कुत्र शक्तिः? भावे शक्तिः. भामो नाम धात्वर्थः, स्वसमभिव्राहृतधातोः सिद्धरूपां क्रियां बोधयति इति घयन्तस्य घञ् प्रत्ययस्यैव शक्तिः अङ्गीक्रियते चेत् लाघवम्. अनुशासनाच्च अपि च साक्षात् पाणिनिनैव भावे इति अनुशासनं सूत्रं क्रियते. किमर्थं वा? यदि निरर्थकं तर्हि भावे इति किमर्थं पाणिनिना कर्तव्यम्? साक्षात् तेन अर्थः उच्यते. अतः गौरवात् अनुशासनाच्च घञादेरेव तथा शक्तिकल्पनात्. अतः घञ् प्रत्ययस्यैव सिद्धरूपक्रियायाः सिद्धरूपक्रियाबोधने शक्तिः इति दिक्. एवञ्च घञ्शक्त्यभिप्रायेण कृदभिहितः इति भाष्यम्, अतो न तद्विरोधः. भाष्यकारेण किमुच्यते? कृदभिहितो भावो द्रव्यवत् प्रकाशते. अर्थात् कृत् प्रत्ययेन नाम घञादिभिः यः भावः व्यापारः अभिहितः, सः द्रव्यवत् नाम साधनरूपेण सिद्धरूपेण भासते इति महाभाष्यम्. तत्रैव धातुभागेन साध्यक्रियायाः भानमस्ति, किन्तु प्रत्ययभागेन या क्रिया यो भावः उच्यते सः सिद्धभावं सिद्धरूपम् आपन्नः इति भाष्यम्. अतः न तद्विरोधः इति भावः. अतः कृदन्तस्थले धातुना असत्त्वभूतस्य भावस्य प्रतीतौ न भाष्यविरोधः. कथमारब्धम्? यदि कृदन्तस्थलेऽपि धातुना साध्यावस्थाक्रिया उच्यते इति चेत् कृदविहितो भावो द्रव्यवत् प्रकाशते इति भाष्येण विरोधः किल इति आरब्धम्. नास्ति विरोधः. कृदभिहितः इत्युक्ते कृत् प्रत्ययेन घञादिना अभिहितः भावः एव द्रव्यवत् प्रकाशते, न तु धातुना अभिहितः भावः. अतः धातुना उभयत्र तिङन्तस्थले कृदन्तस्थले सर्वत्रापि धातुना असत्त्वभूतस्य भावस्यैव प्रतीतिः इति सिद्धान्तः. अवगतं? प्रश्नास्सन्ति? अग्रे गच्छामः. ननु कारकाणां भावनान्वयनियमे एव पाकः इत्यत्रापि कर्मषष्ठ्यनुसारेण भावनायाः वाच्यत्वं सिद्ध्येत्, स एव कुतः इति आशङ्कां समाधत्ते इति अग्रिमकारिकयोः द्वयोः कारिकयोः अवतरणं षोडशसप्तदशकारिके तयोः अवतरणत्वेन उच्यते. इदं मीमांसकैरुच्यते कारकाणां साध्यक्रियायामेव अन्वयः भवति इति नियमः कुतः अङ्गीकरणीयः? अस्माभिः किमुक्तम्? ओदनस्य पाकः इत्यत्र षष्ठी विभक्तिः अस्ति, सा च षष्ठी कर्मणि षष्ठी कर्तकर्मणोः कृति इत्यनेन कृद्योगे उच्यते. तत्र कृद्योगे नाम पाकः इत्यादिषु धातुना साध्यक्रियायाः भानम् अपेक्षितम्, तदैव कारकस्य अन्वयः सम्भवति इति उक्तम्. किन्तु सः नियमः कुतः अङ्गीकर्तव्यः? धात्वर्थफले कारकाणाम् अन्वयः भवतु इति कश्चित् पूर्वपक्षः उच्यते. तदा क्रिया कारिकाद्वयेन क्रियायाः अपेक्षा So he enlists all karyas which can, which are compulsorily associated with kriya. Sambodhanantam krutvorthaha karakam prathamo vatihi dhatu sambandhadhikara nishpannam asamastananya tatha yasya cha bhavena shashti chetyuditam dvayam sadhutvam ashtakasyasya kriyayaiva avadharyatam. Tatra ashtau padarthaha uktaha sambodhanantam krutvorthaha karakam prathamaha vatihi dhatu sambandhadhikara nishpannam asamastananya yasya cha bhavena bhavalakshanam shashti cha nadare asya ashtakasya etesham ashtanam api kriyaya eva sadhutvam kriyaya anvaye eva sadhutvam sambhavati iti avadharyatam avagacchatu ityarthah. Katham iti pratyekam saha pratipadayati. Katham pratyekam etesham sarvesham api kriyaya anvayah iti sambodhanantam. Sambodhanantasya kriyayam anvayah. Katham tvam bruhi devadatta ityadau nighata anurodhat. Samanavakye nighata yushmadasmadadeshah ityanena samanavakye eva tanniyamat. Kimuchyate tvam bruhi devadatta iti prayogah. Tatra devadatta iti sambodhana vibhaktyantam asti. Tatra ekam sutram asti samantritam iti. Ekavachanam sambuddhihi samantritam. Sambodhane ya prathama tadantam amantrita samyam syat. Sambodhana prathama vibhaktihi tadantani rupani amantritam iti uchyante. Amantritam iti kachit samya. Anvartha samya. Sambodhane amantranam nama ahvanam. Ahvane avibhaktihi upayujyate nama sambodhana prathama avibhaktihi. Tadantam amantrita samyam prapnoti. Tasyaha samyayaha kim phalam. Amantritasya cha iti sutramasti. Tripadya. Tena kimuchyate. Padatparasya apadadisthasya sarvasya amantritasya anudattam syat. Iti amantritam nama sambodhana prathamantasya anudattasvaraha vidhiyate. Nighatah ityukte anudattah swara vishaye ayam shabdah upayujyate nighatah nama anudattah amantritasya anudattam syat iti anena sutrena uchyate. Samantritam iti sutrena sambodhana prathamantasya amantrita samya vidhiyate anena sutrena amantritasya cha iti sutrena amantritasya nighatah nama anudattasvarah vidhiyate. Sacha kutra bhavati samanavakye nighata yushmadasmadadeshah iti vattikakarasya uktihi. Yatra ekameva vakyam tatraiva nighata yushmadasmadadeshah. Nighatah anudattasvarah yushmadasmadadeshah. Yushmachabdasya asmachabdasya cha ketana adeshah vidhiyante. Te sarve api samanavakye eva bhavanti iti niyamah. Tarhi kim jatam tvam bruhi devadatta iti ekameva vakyam. Eka vakyata katham vakyam namakim eka ting vakyam. So eka ting pradhanam vakyam. Eka tinganta visheshyakam vakyam iti puram api drishtam. Arthatu tingantam visheshyam tatra anyesham sarvesham api vadarthanam visheshanatvena anvayaha. Tadaiva eka vakyata sambhavati. Yadi sambodhanantarthasya kriyayam anvayaha nasti, tarhi ekavakyata nasyat. Then this would not become a samana vakya. What is the definition of a vakya? Eka ting vakyam. Tasya kortaha eka tinganta visheshyakam vakyam. Vakye ekam tingantam pradhanam bhavati, anye sarvepi arthaha tatra visheshanatvena anvayam prapnuvanti. Ataha atra devadatta iti amantritasyapi kriyaya saha anvayaha bhavedeva. Yadi kriyaya anvayaha nasti tarhi ekavakyata nasyat. Tarhi samanavakye nighata yushmadasmadadeshaha iti niyamat atra nighataha nasyat. Ataha uktancha vakyapadiye sambodhana padam yaccha tat kriyayam visheshanam vrajani devadatteti nighatotra tathasati. Vakyapadiyasya dvitiya kande iyankarika sambodhana padam swartha dvara dhatu upasthapya bhavana rupa kriyayam vyadhikarana visheshanam bhavati. It need not be samanadhikarana. Yadyapi pahi rama ityukte ramasya pahi ityatra samanadhikaranyena anvayaha. Kintu sarvatra tatha nasti. Devadatta aham vrajani. Atra devadatta padarthasya vrajadhatoho. Arthasya gamanasya cha samanadhikaranyam nasti. Ataha devadattaha gamanakartana. Ataha atra vyadhikaranatvenava visheshanam bhavati. Arthat kriyayam visheshanam. Sambodhana padam yaccha tat kriyayam visheshanam. Vrajani devadatteti nighatotta tatha sati. Tatha satyeva nama kriyayam visheshanatve angikrite eva. Tatcha nighataha nama anudattasvaraha bhavati. Nighata darshanameva kriyayam anvaye pramanam bhavati ityarthaha. Ataeva vakyapadiya punaha tritiya kande uchyate siddhasya abhimukhi bhava matram sambodhanam viduho. Sambodhanam namakim siddhasya namakasya chidravyasya abhimukhi bhava. Kashchit rama iti kada ahumayamaha ramaha kutrachidasti asmakam abhimukhi karanam sambodhanasya prayojanam. Asman asmakam dishi tasya lakshasya akarshanam eva prayojanam. Siddhasya abhimukhi bhava matram sambodhanam viduho. Kimartham tatkriyate praptadhimukhyo hyarthatma kriyasu viniyujyate kevalam ahvanena kim prayojanam. Saha yada abhimukhi bhavati tada kutrapi kriyayam viniyogaha kriyate yatha rama iti ahvayamahatet mam raksha itiva pahi itiva kinchit kriyayam tasya viniyogaha bhavati. Evameva he devadatta aham gacchani ityukte mama gamana rupa kriyayam tasya jnana rupa kriya apekshita tam bodhayitumeva kila uchyate. Ataha praptabhimukhyaha hyarthatma yaha abhimukhyam praptaha saha kriyasu viniyujyate tatra kriyayam viniyogaha eva prayojanam bhavati. Abhimukhikaranam kimartham kevalam sambodhanena kimapina siddhyati. Sambodhitaha abhimukhi bhutaha kutrachit kriyayam viniyujyate. Ataha sambodhanantasyapi kriyayam anvayaha bhavatyeva. Iti prathamam sambodhanantam kriyaya eva sadhutvam tatra nighatadikam kriyaya anvaye eva bhavati ityarthaha. Pachati bhavati devadatta ityadautu sutra bhashyadiritya ekavakyaka asatvat syadeva nighataha. Idani manyadekam prayogam manyam prayogam pradarshayati pachati bhavati devadatta. He devadatta pachati bhavati. Pachati bhavati iti vakyam purvam shrutam. Kaha arthaha pakakriya bhavati ityarthaha. Yatha pashyamrigo dhavati ityatra darshanakriyayam dhavanakriya karmatvena anmeti. Mrigakartrakam dhavanam pashya iti. Eva matrapi bhavati kriyayam pachati kriya kartrutvena anmeti. Pakakriya bhavati ityarthaha pachati bhavati iti vakyasya. Atra bhu dhatoho yakriya tasyaha pradhanyam. Pachati ityatra yakriya tasyaha visheshanatvam iti. Idanim he devadatta pachati bhavati ityadautu sutra bhashyadiritya ekavakyata sattvat. Atra prashnaha ekating vakyam iti vartikakarena uktam. Atrata tinganta dvayamasti pachati bhavati. Ataha kriyayam anvaye angikrite api. Devadatta iti sambodhitasya kriyayam anvayaha iti angikrite api ekavakyata bhavat. Ekavakyata nasti vakyadvayamasti ityataha nighataha nasyat iti ashanka. Tatra uchyate sutra bhashyadiritya ekavakyata sattvat. Sutrakara ritya bhashyakara ritya cha atra ekavakyata astyeva syadeva nighataha. Katham nyayate sutrakara ritya atra ekavakyata iti tinga tingaha iti sutrayata tingantanam api ekavakyata svikarat. Sutrakarena sutram nirmitam tinga tingaha ting atingaha. Kaha arthaha atingantat padat parasya tingantasya nighataha bhavati. Arthat tingantat parasya tingantasya nighataha mastu atingantat parasya iva tingantasya nighataha bhavatu ityartham atingaha iti sutrakarena uchyate. Yadi asmavi uchyate, yadi tinganta dvayamasti, tarhi bhinnam vakyam. Yadi bhinnam vakyam tarhi samana vakye nighata yushmadasmadadeshaha ityanena nighatasya praptireva nasti, tarhi atingaha iti na vaktavyam. Yadi tinganta dvaya sattve ekavakyata nasti. If we are arguing that wherever there are two tingantas, there is no ekavakyata, that is they form two separate vakyas, then tingantad anyasmin tingante pare vakyadvayam ekavakyata nasti, ataha nighatasya praptireva nasti. So there is no possibility of having a nighata. Kimartham tarhi atingaha iti sutrakarena vaktavyam. Iti chete, atingaha iti uktavan ityata eva jnayate, tinganta dvaya sattve api ekavakyata bhavitum arhati. Ekam tingantam pradhanam, aparam tingantam yatra gaunam, tatra tinganta dvaya sthale api ekavakyata bhavati. Tadrisha sthale tingatingaha ityanena, atingantat parasya nighatam varayitum, atingaha iti padam sarthakam. Evante sutramakaramate, kriyadvaya sattve api ekavakyata sambhavati. Bhashyakaro api bahuvaram sakshad vadati. Ataeva pashyamrugodhavati ityatra ekavakyata bhashyakarena svikrita. Tatra purvam api drishtam. Pachati bhavati ityatra api pachadayaha kriyaha bhavati kriyayaha kartriyo bhavanti iti bhashyam. Arthat pachidhatuna ya kriya uchyate sa bhavati kriyayaha kartri arthat karakatvena anveti bhavati kriyayaha eva pradhanyam tatra api ekavakyata iti bhashyakarena angikriyate. Ekating vakyam iti vadatam vartika karanam mate param na. So sutrakara ritya tingantadvaya sattvepi ekavakyata bhavitumarhati bhashyakara ritya api bhavitumarhati vartika karena tu kimuktam ekating vakyam iti ataha tanmate nasyat vastutastu ekating visheshyakam vakyam iti tadabhiprayasya purvam api drishtam ekating vakyam ityasya ekatinganta pradhanam vakyam iti abhiprayah iti helaraji yadav helarajah vakyapadiyasya vyakhyanakarta ataha tasya vyakhyane vayyakarana bhushane asmabhishcha ayam vayyakarana bhushana saraha asya purvatanaha rupaha vayyakarana bhushanam iti brahattaraha granthaha. So it was a longer text by Kaundabhatta. Ataha tatra asmabhishcha asmami nama Kaundabhattena api pratipadati tattvat tanmate api bhavatyeva ataha pachati bhavati devadatta ityatra api sambodhanantasya kriyaya anvayat nighataha bhavatyeva ityavadheyam. Ityevam sambodhanantasya kriyaya anvaye eva sadhutvam bhavati iti pratipadyate. Atra kaschit prashnaha. What is the importance of anudata or nighata in these vakyas? Why should there be anudata? See, it is all the anudata, the swara gets pradhanya only in the context of Vedas. Okay? Since loke traisvaryam nashtam laukika prayoge ityataha, laukika prayogeshu asmabhihi swaranam prasaktihi samarthaitum na shakyate. It is not possible for us to understand the importance of swaras in the context of laukika prakriya. Vedetu sarvamapi avashyakam. So all the Paninian rules, especially those with concern the swaras, they are important for determining the Vedic prakriya. So vedetu kasya kutra swaraha bhavati iti atyantam mukhyam bhavati. So wherever they talk of these swaras in the context of vyakarana, so it should always be understood with regard to the Vedas.
Hello?
Vadatu.
The question is, see, every time Bhushana Sara or Paramahansa Mandir, they want to convince their argument, they go to Vakyapadiya.
Yeah.
But why will the Nayayika or the Niyamamsa accept Vakyapadiya? Because Vakyapadiya is basically Shabda Brahma Vichara. And the Nayayika don't accept that.
They don't have to accept that. They have to accept the argument that.
There was a point in trying to argue that my vice versa is correct.
No. See, they quote Vakya Padiya not as Pramana. That is not that it is to be taken as Pramana. They just quote it as because the Vakya Padiyakara has told that clearly. Okay, if you notice, I don't think there is anywhere where Vakya Padiya is taken as the sole Pramana for anything. Always it is backed up by either the Sutra or the Bhashya. Okay. So, obviously, I mean, when the Tarkikas do, they also use their own texts as Pramana. Okay. So, they say Nyaya Sutra, they quote from Nyaya Bhashya, they quote from other texts, the Nyaya Vartika and so on. So, we take quotes from our, the previous Granthas of our Parampara. But it is not, yes, what Vakya Padiya says need not be Pramana. Okay. So, that is why the Pramana, yes, is only Sutrakara. Actually, maybe even not Bhashya. So, they finally go to, that is why everywhere he tries to bring in the Sutrakara as the Pramana. Because Sutrakarasya Pramanyam Sarvaihi Angi Kriyate. Okay. Bhashyakarasya Pramanyam we do take because for when we are arguing from the point of view of Vyakarana, we do take Bhashya as Pramana and we use Vakya Padiya to substantiate what we are saying. See, why they also go back to the previous Granthas, more than to convince the other granthaka, other darshanikas, it is more to convince our own people, that is the other vayakaranas, that what Kaundabhatta is saying, see that is one thing you should remember, if Kaundabhatta says something on his own, the vayakaranas themselves will question what is the pramana. Okay, vayakaranas themselves will not accept. He is a very recent vayakarana, as in 16th or 17th century. So where are you getting your stuff from? So, if Kaundabhatta or even Bhattoji Dekshita is telling something on his own, the Vayakaranas themselves will not accept. Forget going to the other Shastras. So, quoting from Vakya Padiya and the Mahabhashya is for convincing the Vayakaranas. So, for convincing the Tarkikas, we need additional things. So, that is why nowhere does he stop with a single Pramana. So, he tries to bring in several Pramanas. One, say the Sutra Pramana, what the Sutra says, what the Bhashya says, what the Prayoga says. Everything coming together should give the Siddhanta. It is not one thing. So, logically it should be correct. It should also be correct according to what the Munis have said. Okay? So, the Vakya Padiya Pramanya is more for the Vayakaranas themselves than for the other Darshanas, as I understand it. Okay? Any other questions? Because anyway, I don't know, Tarkikas might study this text, but Vayakarana Bhushana Sara is a Vayakarana text. It is we who are studying it. And, any other questions? So, if not, we will stop it here today with the Moola. Phanibhashita Bhashyabdhe Shabda Kaustubha Udhrataha. So even that is why even Bhattodi Dikshita right at the beginning he resorts to the Bhashya because he has to first prove his own Pramanya and then only he can talk about the other things. Phanibhashita Bhashyabdhe Shabda Kaustubha Udhrataha Tatra Nirnita Evartha Sankshepeneha Kathyate Phalavyapara Yordhatu Rashray Etatingasvrataha Phale Pradhanam Vyaparastingarthastu Visheshanam Phalavyaparayos tatra phale tanyakshinadayah vyapare shakshnamadhyastu dyotayantyashrayan vayam utsargoyam karma kartrivishayadav viparyayat tasmadhyathochitam jnayan dyotakartanyathagamam vyaparo bhavana saivot padana saivatakriya kriyo karma katapatter nahi atnortha ishyate kintut padana mevatah karma vatsyadhyagadhyapi karma kartaryanyathatu nabhavet tadrisheriva nirvatyete vikaryete karma vadbhava ishyate natu prapye karmaniti siddhantotravyavasthitah tasmat karotir dhato syad vyakhyan annatta sautingam pakvavan krutavan pakam kinkratam pakvamityapi kinkaryam pachaniyanche tyadi drishtam hikutsvapi kinchakriya vasakatam vinadhatutvamevana sarvanama vyayadinam yavadinam prasangatah nahi tatpathamatrena yuktamityakare sphutam dhatvarthatvam kriyatvam ched dhatutvam cha kriyarthata anyonya samshaya spashtastasmadastu yathakaram अस्यादावपि धर्म्यंशे भाव्येस्त्येव हि भावना अन्यत्राशेषभावात्तु सा तथा न प्रकाशते फलव्यापारयोरेकनिष्ठतायामकर्मकः धातुस्तयोर्धर्मिभेदे सकर्मक उदाहृतः आख्यातशब्दे भागाभ्याम् साध्यसाधनरूपता प्रकल्पिता यथा शास्त्रे सघन्यादिष्वपि क्रमः साध्यत्वेन क्रिया तत्र धातुरूपनिबन्धना सिद्धभावस्तु यस्तस्याः सघन्यादिनिबन्धनः सम्बोधनान्तम् कृत्वोऽर्थाः कारकम् प्रथमोवतिः धातुसम्बन्धाधिकार निष्पन्नमसमस्तनन्य तथा यस्य च भावेन षष्ठी चेत्युदितम् द्वयम् साधुत्वमष्टकस्यास्य क्रियैवावधार्यताम् यदि पक्षे विवत्यर्थः कारकञ्चनयादिषु अद्मेति त्यज्यताम् तर्हि चतुर्थ्या स्पृहि कल्पना अविग्रहागतादिष्ठा यथा ग्रामादिकर्मभिः क्रिया सम्बध्यते तद्वत्कृतपूर्व्यादिषु स्थिता कृत्वोऽर्थाः त्वातु मुन्वत्स्युः इति चेत्सन्ति हि क्वचित् अतिप्रसङ्गो नोद्भाव्योऽभिधानस्य समाश्रयात् भेद्यभेदकसम्बन्धोपाधिभेदनिबन्धनम् साधुत्वम् तदभावेऽपि बोधो नेह निवार्यते। So, atra kashchit prashnah, I'm under the understanding that everyone accepts Mahabhashyam, including Tarkikas. Probably, I don't know exactly if they have ever, do they take Bhashya as Pramana? Probably they do, I'm not sure actually. Sutra, yes. Bhashya, I'm not sure. Because, but probably, because we also take what is a Nyaya Bhashya, is taken as a pramana. I mean, it is quoted in several of Vyakarana Granthas, so probably they do. I don't know. Sri Lakshmi Ramanam Naumi Gauri Ramana Rupinam Sphota Rupam Yatah Sarvam Jagadetad Vivartate.